शुक्लां भरतरं विष्णुं सशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये सरस्वति नमस्तुभ्यं वरदे कामरूपिणि विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः ॐ सहनाभवतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ अस्तु अद्यतन सुभाषितम् एवम् अस्ति पुस्तकस्तात्तु या विद्या परहस्तगतं धनं कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम् पुस्तकस्तात् या विद्या परहस्तगतं धनं कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम् सो अत्र स्था इति वदामः चेत् स्थितम् इति अर्थे स्था धातु अस्ति स्थितं पुस्तके स्थितं विद्या या विद्या पुस्तके एव अस्ति इत्युक्ते वयं पुस्तके पठितवन्तः परन्तु मनसि नास्ति चेत् कथं वयं स्मरामः कथं तस्य उपयोगं कुर्मः न उपयोगं कर्तुं शक्नुमः एव अतः किं भवति निष्प्रयोजनं भवति प्रयोजनं विना अस्ति विद्या पुस्तकस्था या विद्या अस्ति तत् सा विद्या निष्प्रयोजनम् अस्ति निष्प्रयोजनकरी अस्ति सा विद्या निष्प्रयोजनकरी अस्ति एवमेव परहस्तगतं धनम् अस्माकं हस्ते धनम् अस्ति चेत् वयं क्रेतुं शक्नुमः दानं कर्तुं शक्नुमः किमपि कर्तुं शक्नुमः परन्तु तत् धनं वयं वित्तकोषे स्थापयामः वित्तकोषे इत्युक्ते बेङ्क् वित्तकोषे अथवा गृहे स्थापयामः चेत् यदा वयम् आपणे स्मः तत्र किमपि कर्तुं न शक्नुमः हस्ते धनं नास्ति चेत् किमपि कर्तुं न शक्नुमः सो अत्र तोलनम् एवम् अस्ति या विद्या केवलं पुस्तके अस्ति या धनं परहस्तगतम् अस्ति परहस्ते इत्युक्ते अन्येषां कृते वयं दद्मः अथवा गृहे एव स्थापितवन्तः वयम् एतादृशस्थितिः अस्ति चेत् निष्प्रयोजनं भवति किमर्थम् इत्युक्ते कार्यकालसमुत्पन्ने यत् यदा कार्यम् अस्ति तस्मिन् काले समुत्पन्ने इत्युक्ते आगतः यत्र यदा कार्यम् आगतं कार्यं कर्तुं कालम् आगतं तस्मिन् समये सा विद्या मम मनसि नास्ति चेत् तद्धनं मम हस्ते नास्ति चेत् निष्प्रयोजनकरी अस्ति इति सुभाषितस्य अर्थ इत्युक्ते विद्या अस्माकं मनसि अस्माकं हस्ते अस्ति चेत् धनमपि अस्ति इति अर्थे अथवा निष्प्रयोजनकरम् अस्ति इति विद्या इति स्त्रीलिङ्गपदं सो अतः बह्वी इति भवति बहुः पुल्लिङ्गपदं बहु नपुंसकलिङ्गपदं बह्वी इति स्त्रीलिङ्गपदं सो अतः बहुवचनं बह्व्यः यदा वयं स्त्रीलिङ्गपदं वदामः खलु लेखनी लेखन्यौ लेखन्यः बह्वी बह्व्यौ बह्व्यः बह्व्यः विद्याः पुस्तकेषु भवन्ति एव इति वयं जानीमः परन्तु विद्या सर्वदा बुद्धौ एव भवेत् यथा विद्या बुद्धौ भवेत् तथा एव धनमपि स्वसमीपे तिष्ठेत् इत्युक्ते बुद्ध्या वयं धनं सम्पादयामः बुद्ध्या वयं धनं सङ्गृह्णामः अपि च बुद्ध्या वयं दानं कुर्मः क्रेष्यामः इति तादृशं धनमपि स्वसमीपे तिष्ठेत् अन्यस्य अपरस्य समीपे भवति चेत् किं किं प्रयोजनं धनस्य प्रयोजनं किं किमपि नास्ति कार्यकालः यदा आगच्छति आवश्यकतायां सत्यां सो अत्र सति सप्तमी इत्युक्ते यदा तदा उपयुज्य वदामः यदा आवश्यकता भवति तदा विद्यां धनम् उभयमपि अस्माकम् उपयोगाय भवेत् सो अत्र यदा तदा उपयुज्य वदामः अथवा एव आवश्यकतायाम् इति सप्तमी विभक्ति उपयुज्य अपि वक्तुं शक्नुमः उपयोगाय भवेत् या विद्या यत् धनं समये उपयोगाय न भवेत् तत् द्वयमपि अस्ति चेदपि निष्प्रयोजनम् एव इति तात्पर्यम् अस्ति सो अत्र उदाहरणम् अस्ति महाभारते दानशूरः कर्णः दानशूरः कर्णः सर्वाः अपि विद्याः जानाति स्म एव परन्तु यदा युद्धकालः समुत्पन्नः रणरङ्गे कापि विद्या तस्य साहाय्यकरी न जाता किमर्थं न जाता बुद्धौ नास्ति किमर्थं नास्ति शापं स्वीकृतवान् खलु शापं स्वीकृतवान् यदा समयः भवति तदा भवान् न स्मरति मन्त्रं न स्मरति इति शापं दत्तवन्तः ऋषिद्वयम् इति चिन्तयामि अथवा एकः वा सो अत्र एवम् अस्ति सुभाषितं
परशुराम
सः एव एकः एव दत्तवान् समये भवान् न स्मरति मुख्यमन्त्रं न स्मरति इति अस्तु उत्तमसुभाषितम् अस्ति सो अत्र सुभाषिततः किं स्वीकुर्मः इत्युक्ते केवलं पुस्तके ज्ञानम् अस्ति चेत् निष्प्रयोजनं नास्ति किमपि प्रयोजनं नास्ति पुनः पुनः पठामः चेत् एव मनसि तिष्ठति विद्या मनसि तिष्ठति ज्ञानम् अतः केवलं पुस्तकं पठित्वा मा गच्छतु इति मुख्यविषयः मम कृते अस्तु पुनरेकवारं पश्यामः पुस्तकस्तात् या विद्या परहस्तगतं धनं कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम् अस्तु प्रश्नः अस्ति वा अस्तु तर्हि सो अद्यतनकथा अस्ति आत्मविश्वासः सो अत्र कथामालाकार्यक्रमः इति उक्तवती खलु तत्र अपि अद्यतनकथा आत्मविश्वासः एव अस्तु चम्पा भगिनी पठितुमिच्छति वा
कृपया कदाचित् राजा सैनिकेषु अन्यतमम् आहूय आज्ञापितवान् वीरसैनिक सपदि एव त्वं शत्रुसैन्यं प्रविश्य सैनाधिकारिणं सजीवं वा निर्जीवं वा आनीय मम पुरस्तात् उपस्थापय इति
आं भगिनि
धन्यवादः राजा सैनिकेषु अन्यतमं बाहु
सैनिकेषु अन्यतमम् इत्युक्ते सैनिक जनेषु एकः एकम् आहूय इति अर्थे
आहूय आज्ञा पितवान् सो कदाचित् राजा अन्य राजा अन्य सैनिकेषु आहूय आज्ञा पितवान् अर्थम्
आज्ञां दत्तवान् आहूय आज्ञां दत्तवान् कदाचित् इत्युक्ते कदा इति न जानीमः अतः चित् उपयुज्य वदामः चित् किं भगिनि
सपदि
सपदि इत्युक्ते इदानीमेव झटिति झटिति इति अर्थे
वीरसैनिक एकदा एवं त्वं शत्रुसैन्यं प्रविश्य सैनाधिकारिणं सजीवं वा निर्जीवं वा आनीय मम पुरस्ताय उपस्थापय अहं
नास्ति चिन्ता भगिनि नास्ति चिन्ता सो अत्र सैनिकजनाः तत्र आसन् सैनिकेषु अन्यतमम् इत्युक्ते एकं सैनिकम् इत्युक्ते सोल्जर् सैनिकं यः युद्धं कर्तुं सिद्धः अस्ति तं सैनिकम् आहूय आहूतवान् हे अत्र आगच्छतु इति अनन्तरम् आज्ञापितवान् आज्ञां दत्तवान् किम् आज्ञां दत्तवान् वीरसैनिक बहु वीरः अस्ति भवान् वीर हे वीरसैनिक सपदि इदानीमेव सपदि एव त्वं शत्रुसैन्यं प्रविश्य शत्रुसैन्यकारः तत्र सन्ति तत्र गत्वा प्रविश्य इत्युक्ते अन्तः गच्छतु शत्रुसैन्यस्य अन्तः गच्छतु प्रविश्य सैन्याधिकारिणं सो अत्र अधिकारी अस्ति अधिकारी इति अधिकारिन् मूलरूपम् अस्ति अधिकारिन् सैन्य अधिकारिणं द्वितीया विभक्ति
स कमाण्डर् भगिनि सैन्याधिकारी
कमाण्डर् अधिकारी सः एव आज्ञां ददाति सैन्य अधिकारिणं कमाण्डर् पुरुषं सजीवं स इत्युक्ते सः इति वयं वदामः किं
सजीव वा निर्जीवं मीन्स् अलैव् ओर् डेड्
अलैव् ओर् डेड् अलैव् ओर् डेड् सो अत्र वयं वदामः खलु सपाद स आर्द स इत्युक्ते विद् स जीवं वा निर्जीवं वा निर् इत्युक्ते विना जीवं विना वा आनीय मम पुरस्तात् मम पुरतः उपस्थापय स्थापयतु तम् अत्र आहूय आनीय मम पुरतः स्थापयतु इति आज्ञां दत्तवान् अग्रे किम् अभवत् वदतु भगिनि
राजा टोल्ड् द कमाण्डर् टु गेट् एनी सोल्जर्
नो ही टोल्ड् द सोल्जर् सैनिक
कमाण्डर् आफ् द आपोजिट् आर्मी इस् इट्
आपोजिट् आर्मी शत्रुसैन्यम् इत्युक्ते आर्मी So you enter the enemy army and bring the commander alive or dead in front of me.
Oh, so sainya adhikari means jeevit ava mrut.
Dhanyavad. Astu, Amba patitam icchati va agrimam?
राज्ञः वचनं श्रुत्वा कम्बमानः सः सैनिकः अवदत् सः शत्रुपक्षीय सैन्याधिकारी महाबलवान् बुद्धिमान् च तादृशं जनम् एकाकी अहं कथम् आनयेयं कृपया मया सह त्रिचतुराः सैनिकाः सम्प्रेष्यतां कृपया इति राज्ञः वचनं श्रुत्वा सः सैनिकः कम्पमानः सः अवदत् सः शत्रुपक्षीया सैन्याधिकारी महाबलवान् बुद्धिवान् च सः शत्रुपक्षीय सैन्याधिकारी महाबलवान् बुद्धिमान् च तादृशं जनम् एकाकी अहं कथम् आनयेयं तादृशं जनम्
एकाकी इत्युक्ते अहमेव
अहमेव कथम् आनयेयं कृपया मया सह त्रिचतुराः कृपया मया त्रिचतुराः सैनिकाः सम्प्रमेयन्तां कृपया इति मया सह प्रेषयामि कृपया
प्रेषयतु कृपया
कृपया
त्रयः सैनिकाः अथवा चतुरः सैनिकान् प्रेषयतु कृपया अहम् एव एकाकी इत्युक्ते अन्यां विना अलोन् इति अन्यां विना अहं कथम् आनयेयम् अहं कथं तम् आनीय इति उक्तवान् कथम् आनयेयम् कथम् आनयेयं न शक्नोमि किमर्थमित्युक्ते अधिकारी बलवान् अस्ति महाबलवान् अपि च महाबुद्धिमान् तादृशजनः सः कथं वा अहम् आनयेयं न कर्तुं शक्नोमि अतः मया सह त्रयः वा चतुरः वा सैनिकान् प्रेषयतु इति
भगिनी कम्पमानः
कम्पमान इत्युक्ते शिवरिङ्ग् शेकिङ्ग् इति
पुल्लिङ्गे अस्ति कम्पमानः
कम्पमानः कम्पमानः सः कम्पमानः
ट्रेम्ब्लिङ्ग् वित् फियर् भगिनी ट्रेम्ब्लिङ्ग् वित् फियर्
ट्रेम्ब्लिङ्ग् वित् फियर् सः कम्पमानः आसीत् सो दिस् इस् अ विशेषणम् आफ् सः कीदृशसैनिकः कम्पमानः सैनिकः अत्र दुःखितः अपि च सन्तुष्टः दे आल् डिस्क्रैब् द सैनिकः सैनिकः दुःखितः आसीत् सन्तुष्टः आसीत् कम्पमानः आसीत् अत्र उत्तमप्रश्नः अम्ब अहं म्यूट् करोमि अस्तु वा अस्तु सो अत्र कम्पमानः इति शानच् प्रत्यय इति वदामः शत्रुप्रत्ययम् इति अत्र किमपि नास्ति परन्तु वचनम् इति वदन् सः गतवान् वैल् सेयिङ्ग् हि लेफ्ट् इति वदन् गतवान् परन्तु कम्पते इति आत्मनेपदी धातु अतः कम्पन् इति न भवति कम्पमान इति भवति सो अत्र कम्पमानः अस्ति सैनिकः कम्पमानः अस्ति सो वैल् शिवरिङ्ग् हि सेड् लैक् दट् ट्रेम्ब्लिङ्ग् सः अवदत् अथवा कम्पमानः सैनिकः अवदत् द ट्रेम्ब्लिङ्ग् सैनिकः उक्तवान् ट्रेम्ब्लिङ्ग् शिवरिङ्ग् वित् फियर् इति ट्रेम्ब्लिङ्ग् इस् अ बेटर् वर्ड् ट्रेम्ब्लिङ्ग् किमर्थं भयेन ट्रेम्ब्लिङ्ग् भयेन कम्पमानः सः सैनिकः अवदत्. अन्य प्रश्नः अस्ति वा? अस्तु, अग्रे जयश्री भगिनी वक्तुं शक्नोति वा अद्य?
आं भगिनि. एतत् वचनं श्रुत्वा राजा न कोऽपि न प्रेष्यते भवता सह, भवता कार्यमिदम् एकाकीतया तय एव साधनीयम् इति अवदत्.
एकाकीतया एव.
एकाकीतया एव साधनीयम् इति अवदत्. सैनिकस्य वचनं श्रुत्वा राजा वदति सः अन्ये सैनिकाः न प्रेषयते न प्रेष्यते इति. सः सैनिकः एकमेव तस्य कार्यं साधनीयम् इति वदति
इति उक्तवान्. अत्र किञ्चित् व्याकरणं वदामि. धन्यवादः भगिनि, सम्यक्. सो अत्र कोऽपि न प्रेष्यते भवता सह, सो अत्र कर्मणि प्रयोगः, कर्मणि प्रयोगः. सो अत्र आङ्ग्लभाषायां वदामः चेत् नोबडी विल् बि सेण्ट् वित् यु, विल् बि सेण्ट् वित् यु. कोऽपि न प्रेष्यते, प्रेषयामि इति कर्तरिप्रयोग. इत्युक्ते भवता सह अहं कोऽपि न प्रेषयामि, कमपि न प्रेषय, कोऽपि न भवति, कमपि न प्रेषयामि इति कर्तरिप्रयोगे भवति. परन्तु अत्र कर्मणि प्रयोगे अस्ति, अतः कमपि द्वितीया विभक्ति इदानीं प्रथमा विभक्ति अभवत्. कोऽपि, नोबडी विल् बि सेण्ट्, प्रेष्यते भवता सह. अत्र अपि भवता कार्यमिदं, दिस् कार्यम् एकाकितया एव, अलोन् एव, एकाकितया एव साधनीयं, साधनीयं, प्रष्टव्यम्, एतादृशम् अस्ति चेत् कर्मणि प्रयोग, कर्मणि प्रयोगे एव एतादृशप्रयोगः भवति. प्रेषणीया, साधनीयं, कार्यम् इति नपुंसकलिङ्गम्, अतः साधनीयम्. सहायकाः प्रेषणीयाः, सो तत्र सहायकाः पुल्लिङ्ग बहुवचनं, प्रेषणीयाः पुल्लिङ्ग बहुवचनं, एवमेव भवति कर्मणि प्रयोग. प्रेषणीयं, पठितव्यं, साधनीयम् एव एतादृश.
सो भगिनि कोऽपि कर्ता अस्ति, तो कः अपि,
कः अपि, सम्यक्. कः प्रथमं उत्वं भवति, विसर्गसन्धि उत्वं भवति, अनन्तरम् ओ भवति, अनन्तरं पूर्वरूपं भवति, अवग्रहचिह्नं भवति इति. बहवः प्रक्रियाः सन्ति अत्र. अस्तु, धन्यवादः भगिनि. लता भगिनि अग्रे.
आं भगिनि, तदा राजा तम् अपहसन् अकथयत्.
न ततः पूर्वं भगिनि, सैनिकः पुनः
एकवारं पर्याचितवान् सहायकाः प्रेषणीयाः इति. तदा राजा तम् उपहसन् अकथयत् कीदृशः सैनिकः त्वं, यः सैनिकः स्यात् सः स्वकार्यं स्वयं कुर्यात्, न कस्यचित् साहाय्यं निरीक्षेत इति. सैनिकः पुनः राजां प्रति पृष्टवान् कृपया सहायकाः प्रेषणीया इति. तदा राजा हसितवान्, कथितवान् च कीदृशः सैनिकः त्वं, यदि त्वं उन्नतसैनिकः अस्ति चेत् स्वकार्यं स्वयं कर्तुं शक्नुमः. न कस्यचित् सहायं निरीक्षेत् एक्स्पेक्ट भगिनि सहायं निरीक्षेत इति
सम्यक् धन्यवादः. सो अत्र सैनिकः पुनः एकवारं पर्याचितवान् इत्युक्ते बेग्ड् पर्याचितवान् सहायकाः प्रेषणीयाः इति. Somebody should be sent. So atra atra api tadrusha karmani prayogah. Preshaniyah iti. Tada raja tam upahasan atra shatranta padam. While making fun, while laughing at him iti. Kampamana iti paditavantah kalu. Kampamana while trembling. That is atmane padi asti chet mana ana iti bhavati. Parasmai padi. हसन् इति भवति. सो हसन् उक्तवान् कीदृशः सैनिकः त्वं सैनिकः भवान् सैनिकः साक्षात् सैनिकः अस्ति चेत् स्वकार्यं स्वयमेव कुर्यात् मीन्स् करणीयम् इति. कुर्यात् इति कर्तरिप्रयोगे भवति, करणीयम् इति कर्मणि प्रयोगे भवति. समान अर्थकपदं यु शुड् असैनिकः यः सैनिकः सा स्यात् इफ् सम्बडी इस् अ सैनिकः ही शुड् बि एबल् टु डू हिस् ओन् कार्यम् इति तादृश अर्थे अस्ति. न कस्यचित् साहाय्यं निरीक्षते निरीक्षेत. सो निरीक्षते इति आत्मनेपदि अतः निरीक्षेत इति भवति. परस्मैपदी अस्ति चेत् कुर्यात् स्यात् इति तकारं भवति. आत्मनेपदी त भवति. हलन्तपदं स्यात् परस्मैपदी आत्मनेपदी अस्ति चेत् निरीक्षेत. वयम् अग्रे पठामः.
अपेक्षितवान् अपि एक्स्पेक्ट् भगिनि
अपेक्षितवान् अपि
ओके धन्यवादः.
न सम्यक् अपेक्षिते अपेक्षते इस् द प्रापर् वन् फार् एक्स्पेक्ट्.
सो भगिनि उपहसन् स्यात् कुर्यात् उपहसन् इस् पुल्लिङ्ग्
शत्रन्तरो
उपहसन् इस् मेड् फन् आफ्
मेड् फन् आफ् वैल् मेकिङ्ग् फन्. सो अत्र शतरन्तपदम्. सो ही डूयिङ्ग् कार्यद्वयम् अत्र समानकाले समानकाले उपहसति. समानकाले तस्मिन्नेव समये वदति अपि हसन् वदति उपहसन् वदति कीदृशः सैनिकः त्वम् इति. कार्यद्वयं समानकाले वदति चेत् प्रथमकार्यस्य शत्रन्तरूपं भवति. हसन् वदति, पठन् वदति, गच्छन् पश्यति, पश्यन् गच्छति. Which karyam started first? So he started to laugh first. So atah upahasan akatayat. So atra syat itikte, if you were a sainika, that, like that. Yaha sainikah syat, whoever is a sainikah, like that. यः सैनिकः. सो अत्र स्यात् इति विधिलिङ्ग् लकाररूपं. विधिलिङ्ग् इति वदामः चेत् अर्थद्वयम् अस्ति. एकम् अस्ति सम्भावना प्राबब्लि इति अर्थे. अन्यत् एकम् अस्ति यु शुड् इति अर्थे. सो प्रथमं प्राबब्लि. यः प्राबब्लि सैनिकः सः स्वयं स्वकार्यं स्वयं कुर्यात्. सो अत्र it becomes a vidiling. You should, he should be able to do. The first one is, whoever is probably a sainikaha, swakaryam swayam kuriya, should be able to do. Iti. Na kasyachi sahayam nirikshetha. They should not be expecting the help of somebody else. Atra api. Same thing like kuriyat, nirikshetha. निरीक्षेत आत्मनेपदि रूपं, कुर्यात् इति परस्मैपदि रूपम्. एवं भवति. लाट्स् आफ् लिटल् थिङ्ग्स् अत्र.
So, bagini, parasmaipadi and atmanepadi is coming together.
Ah, together. Uttama kalu. Very well written story. Very well written story. Mm-hmm. Agree? Dhanyavada bhai. Lata bhagini. Agree.
अहं पठितवती भगिनि
ओ ओ क्षम्यतां क्षम्यतां मालति भगिनि पठितुम् इच्छति वा नो चेत् नास्ति चिन्ता अस्तु भगिनि सागरि भगिनि
आं भगिनि कीदृशः सैनिकः त्वम् इति राज्ञा यत् पृष्टं तत् श्रुत्वा सैनिकः सङ्कल्पितवान् मया स्वस्य सामर्थ्यं प्रदर्शनीयम् एव इति अतः सः प्रतिवचनं विना अश्वम् आरुह्य उत्साहेन शत्रुसैन्यं दिशि अगच्छत् सैनिकः राज्ञा वचनं श्रुतवान् यत् कीदृशः सैनिकः त्वम् इति तत् वचनं श्रुत्वा सैनिकः सङ्कल्पं कृतवान् मया सामर्थ्यं प्रदर्शनीयम् एव सः किमपि न उक्तवान् अश्वम् आरुह्य शत्रुं व्हाट यू से फॉर कैंप भगिनी
शिबिरं वि जनरलि से शिबिरम् आर् पक्षं शत्रु
शत्रुं पक्षं गतवान्
शत्रुपक्षं गतवान् सो अत्र राज्ञा इति राजन् इति मूलरूपं राजन् अत्र राज्ञा अभवत् राज्ञा सो अत्र नकारम् अस्ति चेत् एवं भवति सागरि भगिनी अहं म्यूट् करोमि भवती क्षम्यताम् अस्तु ध्वनिः आगच्छति सो अत्र सो राज्ञा सो अत्र तृतीया विभक्ति राज्ञा बै द किङ्ग् राज्ञा यत् पृष्टं तत् श्रुत्वा सैनिकः सङ्कल्पितवान् सः सङ्कल्पं स्वीकृतवान् दृढं निश्चितवान् दृढं निश्चितवान् मया स्वस्य सामर्थ्यं प्रदर्शनीयमेव कर्मणि प्रयोग मया स्वस्य स्वप्रदर्शनीयं प्रेषणीया साधनीयम् एतादृशम् अस्ति चेत् कर्मणि प्रयोग कर्तरिप्रयोगे अहं स्वस्य सामर्थ्यं प्रदर्शयामि एव इति कर्तरिप्रयोगे एवं भवति अहं प्रदर्शयामि एव इति अतः सः प्रतिवचनं किमपि न उक्त्वा अश्वम् आरुह्य उत्साहेन इत्युक्ते ओ मया कर्तुं शक्यते वा इति अहं कर्तुं शक्नोमि वा इति सन्देहं विना वेगेन शत्रुसैन्य कुत्र अस्ति इति ज्ञात्वा तत् दिशि तस्मिन् दिशि अत्रापि दिश् इति सकारान्तपदं दिक् 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 दिग् इति भवति दिक् सो अत्र दिशि इति सप्तमी विभक्ति तस्मिन् दिशि अगच्छत् गतवान् अस्तु पुनरेकवारम् अहं
सेम् पाराग्राफ् हस् बीन् रिपीटेड्
आं भगिनि पुनरेकवारम् अहम् एवमेव कृतवती अस्तु अग्रे सविता भगिनी अग्रिमं करोतु
अल्पः एव कालः अतीतः
एकनिमिषम्
आं भगिनि अल्पः एव कालः अतीतः. व्रणितं कच्चित् अश्वस्य उपरि आरोप्य सः सैनिकं राजानं नमस्कृतवान्. स च व्रणितः शत्रुसैन्यस्य सेनाधिपतिः एव आसीत्, न अन्यः. अल्प एव कालम् अतीतः. व्रणितं, वाट् इस् द मीनिङ्ग् आफ् व्रणितं भगिनि?
व्रणितम् इत्युक्ते वूण्डेड्.
वूण्डेड् सोल्जर्. ओके, अल्प एव काल अतीतः.
किं भगिनि?
Something missing.
I will check, Bhagini. So I'm also thinking maybe, yeah, something happened.
Because they're talking about the wounded soldier, no?
Yeah, so let me check. I think I did not miss anything. Parantu pashyamaha. No, I didn't miss anything. Shatru shainya dishi agachat anantram alpaha eva kalaha atitaha. I didn't miss anything. Asta. अल्पः एव कालः अतीतः.
अतीतः व्रणितं कश्चित् अश्वस्य उपरि आरोप्य सः सैनिकः राजानं नमस्कृतवान्. भगिनि, ऐ ट्रै टु टेल् इन् इङ्ग्लिश् अण्ड् देन् ट्रै इन्
भगिनि. आं भगिनि, वदतु वदतु.
आफ्टर् ए शार्ट् वैल् अ वुण्डेड् सोल्जर् on a horse aropya sa sainikana sainikah rajanam namaskritavan. A wounded soldier came and saluted the king. A wounded soldier on a horse came and saluted the king.
No, it's not saha sainikah rajanam namaskritavan. That soldier, whichever soldier he spoke before. Saha sainikah rajanam namaskritavan. परन्तु सः सैनिकः व्रणितं कश्चित् अश्वस्य उपरि आरोप्य, हि हेड् सम्बडि वूण्डेड्.
ओ, ऐ सि, ऐ सि. ओके, हि हेड् गाट् अ वूण्डेड् सोल्जर् अलाङ्ग् वित् हिम्.
आम्, अलाङ्ग् वित् हिम्.
ओ, ऐ सि, ऐ सि. ओके. सः च व्रणितः शत्रुसैन्यस्य सेनाधिपतिः एव आसीत्, न अन्यः.
No.
So the soldier who spoke to the king had brought a wounded soldier, and he was none other than the commander of the enemy army.
Samyak bhagini.
Is it bhagini?
Aam, samyak.
So now I'll try in Sanskrit, bhagini.
Vadat.
Alpakalaha atitaha sainikaha ekam pranitaha sainikaha ashwasi upari आरोप्य राजानां नमस्कृतवान्. तं व्रणितः सैनिकः शत्रुसैन्यस्य सेनाधिपति आसीत्. The king had told bring the commander dead or alive, so he has brought him alive. Wounded but alive.
Uttamam bhagini, uttamam. Samyak. Agre. Astu, punah champa bhagini.
सन्तुष्टः राजा अवदत्, साधु सैनिक साधु, अधुना अवगतं ननु यः परेषां साहाय्येन विना स्वकार्ये उद्यतः भवेत्, सः एव सफलतां प्राप्नोति इति. यः आत्मस्थैर्येण स्वप्रयत्नेन कार्यतप्तरः सन् अग्रे सरेत्, सः विफलतां न प्राप्नोति कदाचित् अपि इति.
सम्यक् भगिनि.
राजा अवदत्, सन्तुष्ट राजा अवदत् साधु, ऐ मीन् बहुत उत्तमम्.
बहु उत्तमम्.
अधुना अवगतं ननु यः परेषां अहं न जानामि भगिनि, बट् ऐ डोण्ट् नो हौ टु
यु केन् से इन् आङ्ग्लभाषा, हिन्दीभाषा, किमपि भगिनि.
ओ ओके सहायेन विना that sainik cannot do sahayeni vina if raja says before to him. Right.
Yaha atma vina karotu iti iti uktavan raja purva.
So atma sthairena swa prayatnana kar if he उसने आत्म स्थैर्य से काम किया तो वो कर सका. विफलता न उसको सफलता मिल गई. इति
सम्यक् 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 भगिनि. अधुना अवगतं ननु, ननु इत्युक्ते किल इति, किल अवगतम्, अवगतं किल अथवा खलु अथवा ननु समानार्थकपदानि. यः परेषां साहाय्येन विना, यः अन्यस्य साहाय्यं विना, साहाय्येन विना स्वकार्ये उद्यतः भवति. उद्यतः इत्युक्ते सिद्धः, अहं कर्तुं शक्नोमि इति तादृशमनो मनस् मन मनः अस्ति, तादृश सिद्धः अस्ति, यः तादृशसिद्धः अस्ति सः सफलतां प्राप्नोति एव, विजयं जयं जयं प्राप्नोति एव. यः आत्मस्थैर्येण, स्थैर्येण इत्युक्ते स्थिरम्, अहं शक्नोमि इति स्थिरज्ञानेन, स्व स्वप्रयत्नेन, स्वस्य प्रयत्नेन कार्यतत्परः, कार्ये एव स्थिरं भवति. सन् सन् इत्युक्ते शत्रन्तरूपम्, अस् अस् धातोः यत् भवति, भवन् अग्रे सरेत् तादृशमनोभावेन यः अग्रे गच्छति सः विफलतां न प्राप्नोति. इत्युक्ते जयं निश्चयेन प्राप्नोति, विफलताम् इत्युक्ते विफलताम् अन्सक्सेस्फुल् न प्राप्नोति, सफलतामेव प्राप्नोति, विफलतां न प्राप्नोति कदाचिदपि. इत्युक्ते नैव इति अर्थे, नैव प्राप्नोति. तादृश आत्मस्थैर्यम् आवश्यकं, स्वप्रयत्नम् आवश्यकं, कार्यतत्परः, कार्ये एव चिन्तनं भवतु. तादृशभावेन यः अग्रे कार्यं करोति सः निश्चयेन जयं जयमेव प्राप्नोति इति, तत्र सन्देहः नास्ति इति. अस्तु अग्रे अम्ब अन्तिम.
तत्तु सत्यम् इति वदन् सः सैनिकः अवनम्य राजानं नमस्कृतवान्.
अग्रिममपि पठतु.
तस्य नयनयोः आत्मविश्वासयुता काचित् कान्तिः राज्ञा प्रत्यभिज्ञाता. तत्तु सत्यम् इति वदन् राज्ञा उक्तविषयं सत्यम् इति सः सैनिकः अवनस्य राज्ञा नमस्कृतवान् इति
वदति तस्मिन्नेव समये इति. वदन् इति शत्रन्तपदम्. अय्यो अय्यो इति उक्तवती. अस्तु
श्रीवदन् सैनिकः अवनस्य राजानं नमस्कृतवान्.
अवनम्य अवनम्य इत्युक्ते नमस्कारं कुर्मः चेत् अस्माकं शिरः किञ्चित् अधः आगच्छति खलु, तदेव अवनम्य
अवनम्य राजानं नमस्कृतवान्। तेनयोः आत्मविश्वासयुता काचित् कान्तिः राज्ञा प्रत्यभिख्याता, तस्य नयनम् आत्मविश्वासं
प्रकटयति। कान्ति इत्युक्ते
प्रकाशं,
प्रकाशं सम्यक्। आत्मविश्वासप्रकाशम्
आत्मविश्वास
अभिज्ञाता। अभिज्ञाता इत्युक्ते हि रेकग्नैस्ड् इति, हि सा राज्ञा वैराज्ञा इत्युक्ते राजा आत्मविश्वासयुतां कान्तिं दृष्टवान्। इत्युक्ते सैनिकः पूर्वं सैनिकस्य आत्मविश्वासः न आसीत्, इदानीम् एतादृश बृहत् कार्यं कृत्वा आत्मविश्वासः सम्पादितवान्, स्वयमेव सम्पादितवान्। सो अत्र किं कथायाः सारांशः कः इत्युक्ते नीतिः का? स्वयमेव कार्यं कुर्मः चेत् आत्मविश्वासः भवति, आत्मविश्वासं सम्पादयामः। कथम् आत्मविश्वासं सम्पादयामः इत्युक्ते स्वयमेव कार्यं कृत्वा आत्मविश्वासं सम्पादयामः इति सम्पादितवान् सः। सम्यक्, अस्तु, धन्यवादः। अस्तु, इदानीं प्रश्नः अस्ति वा? प्रथमं अस्तु अम्ब, अहं म्यूट् करोमि, भवती एव करोतु तर्हि। अस्तु, अग्रे गीतासोपानं प्रति गच्छामः। सो नूतन अध्यायः अस्ति, तदा किं किं भविष्यति, बहु सुलभकथा एव। जयश्री भगिनि पठतु भगिनि।
आं भगिनि, सावधानतया एतां कथां पठथ। सीतायाः अन्वेषणार्थम् आञ्जनेयः समुद्र लग्नं कृत्वा लङ्काम् आगतवान्। तत्र सर्वेषु भवनेषु सीतायाः अन्वेषणं कृतवान्, परन्तु सीतां न दृष्टवान्। तदा निराशतया सः एवं चिन्तयति, यदि अहं सीताम् अदृष्ट्वा एव किष्किन्धा गमिष्यामि तर्हि कः पुरुषार्थं साधितः भविष्यति? सुग्रीवः तदा मां किं वा वदिष्यति? अन्ये वानराः अपि किं वा वदिष्यन्ति? अहम् अपि सीता न लब्ध्वा इति रामं कथं वा वदिष्यामि? यदि अहं तथा वदिष्यामि तर्हि रामः प्राणान् त्यजति, तदा लक्ष्मणः अपि मरिष्यति।
सम्यक् भगिनि, सर्वम् अत्र भविष्यत्कालरूपाणि एव, सर्वान् भविष्यति, गमिष्यति, वदिष्यति, त्यक्ष्यति, मरिष्यति इति। अहम् एकं वक्तुम् इच्छामि। सो अत्र अन्वेषणार्थम् किमर्थम् अन्वेषणार्थम् एतादृशपदम् आगच्छति चेत् ततः पूर्वं षष्टिविभक्ति भवति. सीतायाः अन्वेषणार्थं सीताम् अन्वेषयति आञ्जनेयः, परन्तु अर्थम् इति आगच्छति चेत् षष्टिविभक्ति भवति. अत्र अपि अन्वेषणं कृतवान्, सो अत्र विभज्यप्रयोगः इति वयं पूर्वं ज्ञातवन्तः. विभज्यप्रयोगः अस्ति चेत् अपि षष्टिविभक्ति एव. सीतायाः अन्वेषणं कृतवान्, सीतायाः अन्वेषणार्थम् एवं भविष्यति.
अन्वेषणं
टु
सर्च्
टु सर्च् सीता कुत्र अस्ति इति दृष्ट्वा गच्छति अन्वेषणार्थम्. अहं मम उपनेत्रं कुत्रापि स्थापितवती, अहम् अन्वेषणं करोमि. अस्तु भगिनि, वक्तुमिच्छति वा किमपि जयश्री भगिनि?
आं भगिनि, सीतायाः अन्वेषणार्थम् आञ्जनेयः समुद्र
लङ्घनम् इत्युक्ते टु जम्प् ओवर् इति लङ्घनं
लङ्घनं कृत्वा लङ्कं आगतवान्. तत्र सः सः सीतायाः अन्वेषणार्थं सर्वत्र
गतवान्.
परन्तु सः सीतां न दृष्टवान्. सो निराशया सः चिन्तितवान्. सः सीताम् अन्वेषणं न कृतवान् तदा सः सुग्रीवः किं वदति इति, अन्ये वानराः किं वदिष्यन्ति, सीता न लब्ध्वा इति रामः किं चिन्तयति, किं वदिष्यति, लक्ष्मणः अपि रामः प्राणान् त्यजति, लक्ष्मणः अपि मरिष्यति इति चिन्तितवान्.
सम्यक् सम्यक् भगिनि. अत्र लब्धा सीता न लब्धा, सो एतत् किं वदामि, कर्मणि प्रयोगे कर्मणि भावे इति अस्ति. सो कर्मणि प्रयोगः इव अस्ति, परन्तु अत्र कर्तरि प्रयोगे अपि क्त प्रत्ययः उपयोगं कुर्मः. सो अत्र साधारणतया कुत्र अस्ति, अत्र नास्ति. वयं पूर्वं दृष्टवन्तः यत् करणीयम् एतादृशं पदम् अस्ति चेत् केवलं कर्मणि प्रयोगे एव भवति, परन्तु त प्रत्यय लब्धा इति त प्रत्यय लब्धवान् लब्धवती इति सीतां लब्धवती, दे ओब्टेन्ड् सीता. परन्तु सीता न लब्धा, सीता वास् नाट् ओब्टेन्ड् इति अर्थे भवति. लब्धवान् लब्धवती, लब्धा लब्धः लब्धम्. सो दिस् इस् अ क्त प्रत्यय साधारणतया कर्मणि एव भवति, कर्मणि कर्मणि सर्वदा भवति, सर्वदा कर्मणि भवति, परन्तु केचन समये कर्तरि प्रयोगे अपि भवति, कर्तरि प्रयोगे अपि भवति. सो अत्र कर्तरि प्रयोगे अस्ति सीता न लब्धा इति, कर्तरि प्रयोगे अपि भवति. अग्रे अधिकम् अधिकं वदामि इति राम. सो अत्र वन् थिङ्ग् ऐ नोटिस् इन् द स्टोरि, दे आर् आल् वेरि सूसैडल्. अहं तथा वदिष्यामि, रामः प्राणान् त्यक्ष्यति. सो विसेरै पञ्चप्राणाः इति, पञ्चप्राणान् त्यक्ष्यति रामः, तदा लक्ष्मणः अपि मरिष्यति इति वदति. अस्तु, लता भगिनी अग्रे.
आं भगिनि, तां वार्तां श्रुत्वा भरतः शत्रुघ्नः च प्राणान् त्यक्ष्यतः. ततः पुत्रशोकेन कौसल्या, सुमित्रा, कैकेयी च अपि मरिष्यन्ति. सो बेड् भगिनि.
ऐ नो, ऐ डोण्ट् लैक् द स्टोरी.
सो नेगेटिव्. ओ मै गाड्. रामस्य मरणं ज्ञात्वा सुग्रीवः प्राणान् न धरिष्यति. ततः तस्य पत्नी रुमा, वालिपत्नी तारा च प्राणान् धरिष्यतः. तत्पश्चात् कुमारः अङ्गदः मरणं प्राप्स्यति. तदा तस्य प्रियाः वानराः दुःखेन मुष्टिभिः मस्तकान् ताडयिष्यन्ति, प्राणत्यागं च करिष्यन्ति. कोऽपि वानराः ततः क्रीडासुखं न अनुभविष्यन्ति. ते शिलाग्रेभ्यः अधः पतिष्यन्ति, विषं वा पास्यन्ति, उपवासव्रतं वा आचरयिष्यन्ति. एवं सम्पूर्णः रघुवंशः वानरवंशश्च विनङ्क्ष्यतः. सो टु बेड्. Who has written this, Bhagini?
अत्र किमपि वदतु भगिनि.
सो आञ्जनेया सूचितवान् यदि अहं सीता न पश्यामि तर्हि सर्वान् नाशः भवति इति चिन्तितवान्.
नाशः भविष्यति. विनङ्क्ष्यतः इत्युक्ते किं, रघुवंशः वानरवंशः च विनङ्क्ष्यतः. डिस्ट्रायिड् अपि च नेता विना, कम् टु अन् एण्ड्, नेता विना तदा एव गच्छति. अस्तु, अग्रे लता भगिनी अग्रे.
अपि समाप्तवती भगिनि.
ओ लता अभवत्, सागरी भगिनि क्षम्यतां भगिनि, पुनः दोषं कृतवती. अस्तु,
अतः अहं सीताम् अदृष्ट्वा इतः किं न गमिष्यामि, यतः अहं सुग्रीवं द्रष्टुं न शक्ष्यामि. अहम् अत्रैव वानप्रस्थव्रतं ग्रहीष्यामि, ततः सीतां प्रवेक्ष्यामि अथवा जलं प्रवेक्ष्यामि. तदा मम शरीरं मृगाः शाकाः वा भक्ष्यन्ति. अथवा अहं तापसः भविष्यामि, अत्रैव जीविष्यामि, नैव प्रतिगमिष्यामि. अहं हनुमान् चिन्तितवान् यदि अहं सीतां न द्रक्ष्यामि तर्हि अहं लङ्कां
लङ्कामि निर्गच्छामि लङ्कातः न निर्गच्छामि
निर्गच्छामि अहं सुग्रीवं द्रक्षुं न शक्नोमि अहं लङ्कां वानप्रस्थं स्वीकरोमि
वानप्रस्थव्रतं
व्रतं स्वीकरोमि ततः सीताम् I think it means he will die there, right?
Yeah, chita itukte agni, like
fire.
Aham
agnau praveksyami.
So I didn't understand the next sentence, Pagni.
Jalam praveksyami. I will immerse myself in water.
He wants to take jala samadhi, Bhagini Anjaneya.
Jala samadhi, atava agni samadhi, eva.
Aham jala samadhi, atava agni samadhi, karomi. Kakah mama shariram bakshati. खादिष्यन्ति अहं तपसः करोमि लङ्काम् एव जीवामि अहं प्रति न गमिष्यामि
अहं प्रति न गविष्यामि लङ्कायाम् एव जीवामि लङ्कायाम् एव जीवामि अन्य कुत्रापि न गच्छामि अस्तु अहं तपस्वी भवामि अस्तु अग्रे अन्तिम अस्ति सविता भगिनी
आं भगिनि एवं बहुविधं चिन्तनं कृत्वा अन्ते आञ्जनेयः अहम् अशोकवने अन्वेषणं न कृतवान् तत्रापि करोमि इति निश्चयं कृत्वा अशोकवनं गच्छति तत्र सीतां च पश्यति हव् टु एक्स्प्लेन् दिस् भगिनि
सिम्पल् एव खलु
एवं गेटिङ्ग् टु डिजेक्टेड् एण्ड् डिसपाय्ण्टेड् अल्टिमेट्लि ही थिङ्क्स् आफ़् गोयिङ्ग् टु अशोकवनम् इन् सर्च् आफ़् सीता एण्ड् अल्टिमेट्लि ही फैन्स् सीता इन् अशोकवनम्
सम्यक् अशोकवने अन्वेषणं कृतं तत्र सीतां च
पश्यति
सो अत्र आल् दीस् डिडन्ट् हेपन्
ही वास् टु डिजेक्टेड् एण्ड् डिसपाय्ण्टेड् वेन् ही कुडन्ट् फैन्ड् सीता
निराशतया
अल्टिमेट्लि हि हेस् अ रे आफ् होप् इन् गोस् इन् सर्चेस् इन् अशोकवनं
उत्तमं सम्यक् अस्तु इदानीं एतेषां प्रश्नानाम् उत्तरं लिखत पुत्रशोकेन काः मरिष्यन्ति अग्रे उषा भगिनी वाक्यद्वयं करोति वा कृपया
पुत्रशोकेन काः मरिष्यन्ति कौशल्या सेण्टेन्स्
पुत्रशोकेन कौशल्या सुमित्रा
कैकी मातृत्रयं
मातात्रयं
पुत्रशोकेन मरिष्यन्ति
सम्यक्।
वानराः दुःखेन किं करिष्यन्ति वानराः दुःखेन
मुष्टिभिः
इत्युक्ते किं
विद् द फिस्ट्
मुष्टिभिः मस्तकान् ताडयिष्यन्ति
मस्तकान् ताडयिष्यन्ति विद् द फिस्ट् मुष्टिभिः मस्तकान् ताडयिष्यन्ति अस्तु
सो दिस् इस् आल् इस् नेगेटिव् थिङ्किङ्ग् you know as possibilities of what could happen drove him on the path of negativity
correct I mean he was so intent on succeeding
yeah and only by going through this negativity he came to the positive of searching in Ashwarakmanam
satyam champa bagini agree
आञ्जनेयः किमर्थं लङ्कां गतवान् आञ्जनेयः सीतायाः अन्वेषणार्थं लङ्का गतवान्
सम्यक् लङ्कां गतवान् अस्तु अम्ब रामस्य वंशः कः
रघुवंशः
रामस्य वंशः रघुवंशः अस्तु सम्यक् जयश्री भगिनी अन्ते आञ्जनेयः किं करोति
अन्ते आञ्जनेयः बहुविधं चिन्तनं कृत्वा अशोकवनम् अन्वेषणं कृतवान् तत्र सीतां
दृष्टवान् सम्यक् अस्तु अग्रे अधो रेखाङ्कितम् इत्युक्ते अधः रेखा इत्युक्ते लैन् अधो रेखाङ्कितं शब्दम् अधिकृत्य एतेषाम् उत्तरवाक्यानां प्रश्ननिर्माणं कुरुत सीताम् इत्युक्ते कथं भवति आञ्जनेयः अशोकवने सीतां पश्यति लता भगिनी प्रश्नः कः
आं भगिनि कां पश्यति
कां पश्यति सागरि भगिनी
वार्ता श्रुत्वा भरतः शत्रुघ्नः च प्राणान् त्यक्ष्यतः
वार्तां श्रुत्वा
कौ प्राणान् त्यक्षतः
उत्तमं कौ प्राणान् त्यक्षतः सम्यक् सविता भगिनी
वानराः मुष्टिभिः मस्तकान् ताडयिष्यति वानराः कथं ताडयिष्यन्ति
सो अत्र तृतीया विभक्ति केन काभ्यां कैः इति भवति मुष्टि इति स्त्रीलिङ्गपदं वा पुल्लिङ्गपदं वा
मुष्टिभिः
अहं पश्यामि अहमपि
नपुंसकलिङ्ग भगिनि
स्त्रीलिङ्गे अस्ति भगिनि
स्त्रीलिङ्ग वा
मुष्टिः
पुल्लिङ्गे अस्ति
आं पुल्लिङ्ग मुष्टि पुल्लिङ्ग सो अतः कथं भवति केन काभ्यां कैः स्त्रीलिङ्ग अस्ति चेत् कया काभ्यां काभिः सो अत्र पुल्लिङ्ग अतः किं भवति वानराः इकारान्त पुल्लिङ्ग
केन वानराः केन सह मस्तकान् ताडिष्यन्ति
There is no saha atra.
Saha is not here.
Okay. Kena kabhyam tadishi. Parantu atra bahu vachanam. Bihi iti bahu vachanam. Mushtiya.
Kabhyam kaihi. Kaihi.
Kaihi.
Vanarah kaihi mastakan tadishi.
So atra mushtiya, mushtibhyam, mushtibhihi. Iti trini rupani.
Naam bhagini.
So is it like kavi?
Mushtiyam kaha bhagini?
Like kavi?
Kavi bhi kavina bhavati.
But it's the ikaranta pumlinga, right?
Kavina, mushtina eva samya, mushtina.
Bhagini, pratipadikam kim?
Mushti pratipadikam. Kavina, kavibhyam, kavibhihi, so ataha mushtina, aham mushtya iti strilinge bhavati. So atah mushti bihi mushti
vanarah
mushtina mushtibhyam mushti bihi evam bhavati moola rupam bhyam moola rupam bihi so atra moola rupam na mushtina mushtibhyam mushtibhihi. Mushtina, mushtibhya, mushtibhihi. Astu, agre? Agre ka? Usha bhagniva? Punaha?
Okay. Vanaraha tataha krida sukham na anubhavishyanti. Vanaraha tataha It should be Saptami, right?
Vanaraha tataha?
Kaha, what is it? Kaha? Kam, kena, kasyai, kasmat, kasya, ka...
Ma'am, krida sukham iti vibhakti ka sukham.
Dvitiya?
Dvitiya,
Sukham. Vanaraha tataha kam na anubhavishyanti.
Anubhavishyanti. So atra dvitiya vibhakti iti samyak. Dvitiya. Parantu lingam kem?
Krida mukham. Mukham napumsakalingam.
Napumsakalinga. So napumsakalinga asti chet kim shabdaha katam bhavati. Kim ke kani pratama vibhakti. Dvitiya vibhakti?
Kim ke kani. So it should be kim. Vanaraha tataha kim na anubhavishyanti.
Kim na anubhavishyanti. Samyak. Kim na anubhavishyanti. Krida mukham na anubhavishyanti. Astu. Champa bhagini. Agree.
Aniyaha sarvesu bhavanesu sitayaha anveshanam krutavan. So Anjaneyah Kutra Sitayah Anveshanam
Krutavan. Samya. Kutra Sitayah Anveshanam Krutavan. Sarveshu Bhavaneshu. Samya. Astu. Agre. Etesham Vakyanam Bhavishyat Kala Kriyapadanam Stane Vartamana Kala Rupani Likhat. Astu. So Bhavishyati iti Bhavishyat Kala asti. So, tat vartamana kala rupam parivartayatu.
Bhagini, I have...
Kim uktavati, Bhagini?
Aham Jayashri, I have a question. Sarveshu bhavaneshu, can we say Anjaneyaha... Keshu Sitayaha Anveshanam Krutavan?
Tadapi samyak, parantu, if it is only Sarveshu, we can take Keshu Bhavaneshu.
Okay. Thank
but you, Bhagavan. Keshu Sitayaha Anveshanam Krutavan, parantu Kutra is better, I think. kutra.
Okay. But we can say Anjaneya keshu keshu
bhavaneshu tu, that's why, right, Bhagini?
Yeah, keshu, keshu bhavaneshu will be better. Keshu bhavaneshu sitayah anveshanam kritvan. Hmm. धन्यवादः भगिनि. अस्तु, इदानीं कस्याः पर्यायः? यदि अहं सीताम् अदृष्ट्वा एव किष्किन्धां गमिष्यामि तर्हि कः पुरुषार्थः साधितः भविष्यति? सो अत्र पदद्वयम् अस्ति भविष्यत्कालरूपम्. अम्ब, इति वर्तमानकाल कथं भवति?
गच्छति.
भविष्यति?
भवति.
यदि अहं सीताम् अदृष्ट्वा एव किष्किन्धां गच्छामि तर्हि कः पुरुषार्थः साधितः भवति? सम्यक्, धन्यवादः. जयश्री भगिनी.
सुग्रीवः तदा मां किं वा वदिष्यति? सुग्रीवः तदा मां किं वा वदति?
वदति, सम्यक्. किं वा वदति, सम्यक्. लता भगिनी, अग्रे.
आं भगिनि, यदि अहं तदा वदिष्यामि तर्हि रामः प्राणान् त्यक्ष्यति. यदि अहं तदा वदामि तर्हि रामः प्राणान् त्यजति.
सम्यक्, त्यजति. धन्यवादः. अस्तु, अग्रे. सागरि भगिनि वा? तत्पश्चात् कुमारः अङ्गदः मरणम् अन्म्यूट् करोतु भगिनि. म्यूट् मध्ये अस्ति भवती. अस्तु, प्रायः समस्या इति चिन्तयामि. सविता भगिनि, अग्रे. मरणं
तत्पश्चात् कुमारः अङ्गदः मरणं प्राप्नोति.
अङ्गदः मरणं प्राप्नोति. केऽपि वानराः ततः क्रीडामुखान् न अनुभविष्यन्ति.
अनुभवति. केनोपि वानरः तत् क्रीडामुखं क्रीडासुखं न अनुभवति. अनुभवन्ति.
नौ यु केन् भगिनि, अग्रिमं करोतु. तदा वानराः
तदा वानराः दुःखेन मुष्टिभिः मस्तकान् ताडिष्यन्ति, प्राणत्यक्त्यां च करिष्यन्ति. तदा वानराः दुःखेन मुष्टिभिः मस्तकान् ताडयन्ति, प्राणत्यागं च कुर्वन्ति.
सम्यक्, ताडयन्ति, कुर्वन्ति. अस्तु, सविता भगिनी, अग्रे.
भगिनी, प्लीज़् म्यूट् मी, ऐ एम् नाट् एबल् टु म्यूट्.
ओ, अस्तु. या, ऐ डोण्ट् नो वै भवत्याः ध्वनिः अपि च मम अम्बायाः ध्वनिः किञ्चित् अधिकमस्ति अद्य. अस्तु, अग्रे का? वानराः शिलाग्रेभ्यः
अधः पतिष्यन्ति. पतिष्यन्ति, विषं वा पास्यन्ति, उपवासव्रतं च आचरिष्यन्ति. वानराः शिलाग्रेभ्यः अधः
पतन्ति.
वानराः, ओके, पतन्ति. विषं वा पास्यन्ति, विषं पिबन्ति. उपवासव्रतं च आचरति.
आचरन्ति
सम्यक् आचरन्ति. उषा भगिनी अग्रे.
अहं सुग्रीवं द्रष्टुं न शक्ष्यामि. अत्रैव वानरप्रस्थव्रतं गृहीष्यामि. अहं सुग्रीवं द्रष्टुं न शक्नोमि. अत्रैव वानरप्रस्थव्रतं गृहीष्यामि. सोरि, गृह्णामि.
गृह्णामि सम्यक्. वानप्रस्थव्रतं गृह्णामि. अस्तु सम्यक्. अग्रिममपि करोति वा? ततः
चितां प्रवेक्ष्यामि. ततः चितां प्रवेश्यामि. अत्रैव जीवामि. नैव गच्छामि.
प्रतिगच्छामि. अस्तु अग्रे किम् अस्ति? एतेषु वर्तमानकाल भूतकाल भविष्यत्काल क्रियापदरूपाणि पृथक् लिखत. अस्तु चम्पा भगिनि, वर्तमानरूपाणि चिन् प्रथमम् आगतवान् कुत्र भवति? एकं द्वे त्रीणि इति सङ्ख्यां लिखामः. आगतवान्
भूतकाले अस्ति.
भूतकाले अस्ति. गमिष्यति?
गमिष्यति भविष्यकाले अस्ति.
भविष्यत्काले. वक्ष्यामि?
वक्ष्यामि वक्ष्यामि भविष्यकाले.
भविष्यत्काले अस्ति. अस्तु अम्ब, विनङ्क्ष्यतः. विनङ्क्ष्यति इङ्क्ष्य इति अस्ति चेत् साधारणतया भूतकाल वा न, वर्तमानकाल अपि न,
भविष्यत्काल.
अम्ब अन्म्यूट् करोतु कृपया. इदानीं विनङ्क्ष्यतः, विनङ्क्ष्यति, विनङ्क्ष्यतः, विनङ्क्ष्यन्ति. वर्तमानकाल वा भूतकाल वा भविष्यत्काल वा विनङ्क्ष्यति, विनङ्क्ष्यतः इति?
वर्तमानकालः.
वर्तमान न, वर्तमानकाल न, न उषा, उषा भगिनि, भविष्यत्काल. एवम् एवं भवति
वदनीयं.
सो अत्र पश्यामि इति अम्ब, वर्तमान वा भूत वा भविष्यत्काल वा? पश्यामि वर्तमानकाल. शक्ष्यामि
वर्तमानकाल.
शक्नोमि वर्तमानकाल. शक्ष्यामि द्रक्ष्यामि
विनक्ष्य.
सो अम्ब अम्ब एव वदतु. सो अम्ब अन्यत् एकं करोतु. दृष्टवान्
वर्तमानकाल.
दृष्टवान् दृष्टवती इति
भूतकाल.
भूतकाल. अस्तु धन्यवादः अम्ब. जयश्री भगिनि, कृतवान्?
कृतवान् इस् भूतकाल.
भूतकाल. ग्रहीष्यति?
भविष्यत्काल.
भविष्यत्काल. अन्यत् एकं करोतु भगिनि. करोमि?
करोमि वर्तमानकाल.
वर्तमानकाल. धन्यवादः. लता भगिनि, जीविष्यामि?
भगिनि जीविष्यामि भविष्यत्काल. भवति वर्तमानकाल. वदिष्यामि भविष्यत्काल.
भविष्यत्काल. धन्यवादः. अस्तु अग्रे सागरि भगिनी अन्म्यूट् कर्तुं शक्नोति वा? ओ गतवती. अस्तु सविता भगिनी.
मरिष्यामि भविष्यत्कालः. चिन्तयामि
वर्तमानकाल गच्छामि वर्तमानकाल
वर्तमानकाल अस्तु सो अत्र वान्वति इति अस्ति चेत् वान्वति अपि च अगच्छत् इति अगच्छत् इति आगच्छति चेत् भूतकाल वर्तमानकाल इष्य साधारणतया इष्य इक्ष्य इष्य इति न भवति ग्रहीष्यति भूत भविष्यत्काल शक्ष वक्ष विनङ्क्ष अपि च पास् अत्र नास्ति पास्यति सकार इष्य इक्ष्य सो अत्र इष्य सकार इष्य अपि च इक्ष्य साधारणतया एतादृशरूपाणि मध्ये भवति चेत् तत्तु भविष्यत्कालरूपम् इति अनुमानं कर्तुं शक्नुमः अस्तु समयः किञ्चिदेव अस्ति पश्यामः समापयितुं पश्यामः वा इति पाठे विद्यमानानि वाक्यानि परिशील्य अत्र रिक्तस्थानानि पूरयत् आञ्जनेयः ब्लाङ्क् कृत्वा लङ्काम् आगतवान् किं कृत्वा
समुद्रलङ्घनं
समुद्रलङ्घनं मिलित्वा एव कुर्मः समुद्रलङ्घनं यदि अहं तथा वदिष्यामि तर्हि रामः
प्राणं त्यक्षति
प्राणान् प्राणान् पञ्चप्राणान् इति अस्ति खलु पञ्चप्राणान् त्यक्ष्यति अस्तु तां ब्लाङ्क् श्रुत्वा भरतः शत्रुघ्नः च प्राणान् त्यक्ष्यतः
वार्तां श्रुत्वा
वार्तां वार्ता इति स्त्रीलिङ्गपदं तत् पश्चात् ब्लाङ्क् अङ्गदः मरणं प्राप्स्यति कुमारः अङ्गदः मरणं प्राप्स्यति अत्र त्यक्ष्यति प्राप्स्यति पास्यति भविष्यत्कालरूपम् ते ब्लाङ्क् अधः पतिष्यन्ति ब्लाङ्क् वा पास्यन्ति अग्र इत्युक्ते लैक् अट् द टिप् इति अग्र शिलाग्रतः शिलाग्रेभ्यः अस्तु शिलाग्रेभ्यः फ्रम् द टिप् आफ् द शिला अधः पतिष्यन्ति अथवा विषं वा खलु विषं
विषं
वा पास्यन्ति सो अत्र इष्य इष्य इक्ष्य एतादृशरूपाणि भवन्ति चेत् भविष्यत्कालरूपम् अस्तु इदानीं समापयामः अग्रिमवर्गे पञ्चमी विभक्तिम् आरम्भं कुर्मः गाण्डीवं संस्कृते हस्तात् इति पञ्चमी विभक्तिरूपम् अस्तु धन्यवादः शान्तिमन्त्रेण समापयामः ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् शान्ति शान्ति शान्तिः हरिः ॐ श्री हरिः ॐ नमः हरिः ॐ
धन्यवादः भगिनी.